एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः ऐसैक वित्तकोषेण विभिन्नानाम् तिसृणाम् परियोजनानाम् क्रियान्वयनाय एक खर्ब एकाब्जम् एकषष्टिः कोटयश्च रूप्यकाणि सहयोग स्वरूपेण प्रदास्यन्ते। सहयोग वित्तेषु षडब्जानि द्वापञ्चाशत् कोटयश्च रूप्यकाणि अनुदानत्वेन अवशिष्टम् वित्तम् सौविध्यपूर्ण ऋण सहयोग स्वरूपेण च प्रदीयमानमस्ति। द्वितीय चरणस्य काष्ठमण्डपोपत्यका पेयजलापूर्ति सुधार परियोजनायाः दक्षिणैशयिको क्षेत्रीयार्थिक सहयोग परियोजनायाः समावेशी विकास कार्यक्रमस्य च क्रियान्वयनाय ऋण सहयोग अनुदान वित्तमेतच्च उपयुज्यते। अर्थ मन्त्रालय ह्य आयोजिते कार्यक्रमे ऋणानुदान सहायता सम्बद्धे संविदा पत्रे अर्थ सचिव डाक्टर रामप्रसाद घिमिरे ऐसैक वित्त कोषस्य देशीय निर्देशक आना कुर्स्वा च हस्ताक्षराणि विहितवन्तौ। स्वास्थ्य जनसंख्या मन्त्रालयेन कार्यालयस्य समये अनुपस्थिताः चिकित्सकाः दण्डयिष्यन्ते। स्वास्थ्य जनसंख्या मन्त्रिणा प्रदीप पौडेलेन असन्तोष श्रवणार्थम् एकम् 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 पञ्चचेत्यङ्केषु स्थापितम् दूरभाषम् कृत्वा कार्यालयसमये चिकित्सकानाम् अनुपस्थितेः वेदनायाः प्राप्तत्वात् एतद् उपेक्षायाम् विहितायाम् सत्याम् दण्डयितुम् अन्तर्गताः अधिकारिणः निर्दिष्टाः वर्तन्ते। मन्त्री पौडेलः वैद्युतोपस्थिति कुञ्जिकाम् प्रयोक्तुमपि निरदिशत्। नेपाले पुनः मंकीपक्स रोगस्य संक्रमणम् दृष्टम् वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य प्रवक्तुः डाक्टर प्रकाश बुढाथोकी इत्यस्य अनुसारेण साउदी अरब देशाद् परह्य स्वदेशम् आगते तनहु जनपदस्य 37 वर्षीय पुरूषे मंकीपक्स रोगस्य संक्रमणम् पुष्टीभूतम् अस्ति इति असूचयत्। तस्य राष्ट्रिय जनस्वास्थ्य प्रयोगशालायां परीक्षणं विहितमासीदिति प्रवक्ता बुढाथोकी असूचयत्। मंकीपक्स संक्रमणस्य दर्शनानन्तरं सीमा प्रवेश विन्दौ त्रिभुवनान्तर्राष्ट्रिय विमानस्थले विद्यमाने स्वास्थ्य सम्पर्क कक्षे च सावधानताम् अवलम्बितुं सर्वकारेण सम्बद्ध पक्षाः निर्दिष्टाः वर्तन्ते। सभामुख देवराज घिमिरे कथयति संघीयता महर्गा सम्भूता स्थिति टिप्पणी तर्कविहीना अस्ति। राष्ट्रिय प्राकृतिक स्रोतो वित्तायोगस्य स्मारिकाम् लोकाय अर्पयन् सभामुख घिमिरे विषयवस्तुना गाम्भीर्यस्य अज्ञानेन विनैव संघीयतायाः विषये प्रतिकूल टिप्पणी अनुचितास्तीति अवोचत। सभामुख घिमिरे संघीय शासन प्रणाल्याम् विद्यमानायाः न्यूनतायाः उपलब्धेश्च समीक्षायाः आवश्यकतास्तीति प्रत्यपादयत्। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा निगदति नेपाल भारतात् अतिरिक्त वायु मार्गम् अपेक्षते। भारतस्य नयाँ दिल्ली स्थाने ह्य आयोजितम् भारत नेपाल आर्थिक सम्मेलनम् प्रमुखातिथिरूपेण पूर्वेद्यो सम्बोधयन्त्री मन्त्री डाक्टर राणा नेपालेन भारतात् अतिरिक्त वायुमार्गस्य अपेक्षा विधीयमानास्तीति असूचयत्। तदवसरे परराष्ट्र मन्त्री राणा भारतस्य नैज क्षेत्रम् उद्यमिनः व्यवसायिनश्च नेपाले निवेशनस्य पर्याप्त मात्रायाम् सम्भावना अवसराश्च विद्यन्ते इत्यतः ततः लाभम् ग्रहीतुम् अन्वरुणात्। प्रधानमन्त्रिणा केपी शर्मा ओलिनासा नेपालस्य कृते बंगलादेशस्य राजदूतेन सलाहुद्दीन नोमन चौधरी इत्यनेन प्रास्थापनिका मेलवार्ता विहितास्ति। सिम्ब प्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य सम्भूते मेलने प्रधानमन्त्री ओली नेपाल बंगलादेशयोः पारस्परिक सम्बन्धस्य कृते विहितस्य योगदानस्य कृते चौधरी इत्यस्मै धन्यवादम् व्याहरत्। प्रधानमन्त्री ओली बंगलादेशः अन्तरिम राजनीतिका स्थिरतातः शीघ्रमेव स्थायित्वम् प्राप्स्यतीति विश्वासम् अभिव्यनक। तदवसरे राजदूतः चौधरी नेपालस्य शान्ति प्रक्रियातः राजनीतिक परिवर्तनाच्च बंगलादेशेन शिक्षा गृहीतास्तीति अवोचत्। प्रधानमन्त्री केपी शर्मा ओली किर्तिपुर क्रिकेट रंगशालाया निर्माण कार्य यथासमय सम्पत्स्यते इति सूचयति। मन्त्री परिषद ह्यस्तनोपवेशेन किर्तिपुर क्रिकेट रंगशालाया सुविधापूर्णान्तराष्ट्रियकरणस्य कार्य चरणत्रय निर्माणानुबन्धनं कृत्वा निर्धारित समय एव सम्पादयितुं निर्णीतमस्तीति असूचयत्। संयुक्त राष्ट्र संघेन उद्घोषित विश्व ध्यान दिवस अद्य नेपालेपि विभिन्न धार्मिक आध्यात्मिक सांस्कृतिक सामाजिक संस्थाभिः विशेष कार्यक्रमान् आयोज्य समायोज्यमानो वर्तते। राष्ट्रसंघस्य महासभया प्रतिवर्षं डिसेम्बर मासस्य एकविंशं दिवसं विश्व ध्यान दिवसत्वेन आयोजयितुं निर्णीतम् वर्तते। अत्रान्तरे प्रधानमन्त्री केपी शर्मा ओली ध्यानं मानव जातेः कल्याणाय वर्तते इति विचारं व्यनक्ति। विश्व ध्यान दिवसस्य अवसरे ह्य श्रव्य दृश्य माध्यमेन शुभकामना सन्देशं प्रदत्त प्रधानमन्त्री ओली ध्यानात् लाभं ग्रहीतुं सर्वान् अन्वरुणत्। पृथ्वी राजमार्गस्य मुंगलिङ नौविशे मार्गखण्ड स्व रविवासरात् प्रतिदिनं एक सप्ताहं यावत् दिवा आंशिक रूपेण पिहितो भविष्यति। मार्गखण्डस्य पोखरे भीर स्थाने विशाल तार स्थाने च शिलाभित्तिं कर्तयितुम् अस्यैव पौष मासस्य सप्तम दिवसात् त्रयोदश दिवसं यावत् दिवा समये घण्टात्रयं मार्ग पिहितो भविष्यति। नागढुंगा मुंगलिङ मार्गयोजनाया पश्चिमखण्डस्य स्थपति विजयदरई इत्यस्य अनुसारेण प्रातः एकादश वादनात् दिवा द्विवादन पर्यन्तं यातायातम् अवरोध्य कार्यं करिष्यति। मुंगलिङ पोखरा मार्गखण्डस्य अन्तर्गतं तनहु जनपदस्य पूर्वखण्डस्य विंशति किलोमीटर मिते मार्गे मार्ग निर्माणस्य कार्यं सम्पन्नमस्ति। सम्प्रति मार्ग निर्माणस्य कार्यं तीव्रगत्या अग्रे वर्धमानमस्ति। मुंगलिङ पोखरा मार्ग योजनाया ज्ञापितं वर्तते। मार्गखण्डस्य स्थपतेः विष्णुप्रसाद पाण्डेयस्य अनुसारेण बन्दीपुर आबुखैरनी व्यास नगरपालिकाया विभिन्नेषु स्थानेषु मार्ग निर्माणस्य कृष्ण वज्रीकरणस्य च कार्यम् अग्रे वर्धमानमस्ति। क्रिकेट क्रीडाया एनपीएल श्रृंखलाया प्रथम संस्करणस्य उपाधि प्राप्त्यर्थम् अद्य अन्तिम क्रीडा भविष्यति। अद्य दिवा सपाद द्वादश वादनतः कीर्तिपुरवर्तिन्यां त्रिभुवन विश्वविद्यालय क्रिकेट रंगशालायां सम्पद्यमानायाम् अन्तिम क्रीडायाम् उपाधि प्राप्त्यर्थं सुदूर पश्चिम रोयल जनकपुर बोल्ड चेति द्वौ समूहौ प्रतिस्पर्धां कुर्वतः। अन्तिम क्रीडायां प्रवेशाय गत बुधवासरे सम्पन्नायाम् उपान्तिम क्रीडायां सुदूर पश्चिम रोयल समूहेन जनकपुर बोल्ड समूह परि अष्ट क्रीडकानाम् अन्तरेण विजयमधिगत्य अन्तिम क्रीडाया स्थानं सुनिश्चितम् आसीत् चेत् गत बृहस्पतिवासरे सम्पन्नायां द्वितीयायाम् उपान्तिम क्रीडायां जनकपुर बोल्ट समूहेन कर्णाली याक समूह परि क्रीडकद्वयस्य अन्तरेण विजयमधिगत्य अन्तिम क्रीडाया कृते स्थानं सुनिश्चितम् आसीत्। समूह चरणस्य क्रीडास्वपि इमौ एव समूहौ प्रथम द्वितीय स्थानयोः आस्ताम् इति समाचाराः।